श्रीमद्भागवत महापुराणम् एकादशस्कन्धः अथैकविंशोऽध्यायः श्रीभगवानुवाच यैतान्मत्पथो भक्तिज्ञानक्रियात्मकान् क्षुद्रान् कामांश्च लयैः प्राणैर्जुषन्तः संसरन्ति ते स्वे स्वेऽधिकारे अनिष्ठा सगुणः परिकीर्तितः विपर्ययस्तु दोषस्यादुभयोरेष निश्चयः शुद्ध्यशुद्धिविधीयेते समानेष्वपि वस्तुषु द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ धर्मार्थौ व्यवहारार्थं यात्रार्थमिति चानग दर्शितोऽयं मयाचारो धर्ममुद्वहतान्धुरम् भूम्यं द्वग्न्यनिलाकाशाभूतानां पैच धातवः आब्रह्मस्थावरादीनां शारीरा आत्मसंयुताः वेदेन नामरूपाणि विषमाणि समेष्वपि धातुषु धवकल्प्यन्ते तेषां स्वार्थसिद्धये देशकालादिभावानां वस्तूनां मम सत्तम गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम् अकृष्णसारो देशानां ब्रह्मण्यो शुचिर्भवेत् कृष्णसारोऽप्यसौ वीरकीकटा संस्कृतेर्णम् कर्मण्यो गुणवान् कालो द्रव्यतः स्वत एव वा यतो निवर्तते कर्म सदोषो कर्मकः स्मृतः द्रव्यस्य शुद्ध्यशुद्धि च द्रव्येण वचनेन च संस्कारेणाथ कालेन महत्वाल्पतयाथवा शक्त्याशक्त्याथवा बुद्ध्या समृद्ध्या च यदात्मने अघं कुर्वन्ति हि यथा देशावस्थानुसारतः धान्यदार्वस्थितन्तूनां रसतैजसचर्मणां कालवायवग्निवृत्तो यैः पार्थिवानायुतायुतैः अमेध्यलिप्तैर्येन गन्धल्लेपौ व्यपोहति भजते प्रकृतिं तस्य तच्छौचन्ताव दृश्यते। स्नानदान तपोवस्था वीर्य संस्कार कर्मभिः मत्स्मृत्याचात्मनशौचं शुद्धक् कर्माचरे द्विजः। मन्त्रस्य च परिज्ञानं कर्मशुद्धिर्मदर्पणम्। धर्मः सम्पद्यते षड्भिः रधर्मस्तु विपर्ययः। क्वचिद् गुणोऽपि दोषस्यादोषोऽपि विधिना गुणः। गुणदोषार्थनियमस्तद्भिदामेव बाधते। समानकर्माचरणं पतितानान्न पातकम्। औत्पत्तिको गुणसङ्गो नशयानः पतत्यधः। यतो निवर्तेत विमुच्येत ततस्ततः। एष धर्मो नृणां क्षेमशोकमोहभयापहः। विषयेषु गुणाध्यासात् पुंसः सङ्गस्ततो भवेत्। सङ्गात्तत्र भवेत् कामः कामादेव कलिर्नृणाम्। कलिर्दुर्विषहः क्रोधस्तमस्तमनुवर्तते। तमसा ग्रस्यते पुंसश्चेतना व्यापिनी धृतम्। तया विरहितः साधो जन्तुशून्याय कल्पते। ततोऽस्य स्वार्थविभ्रंशो मूर्च्छितस्य मृतस्य च। विषयाभिनिवेशेन नात्मानो वेदनापरम्। वृक्षजीविकया जीवन् व्यर्थं भस्त्रेव यश्वसन्। फलश्रुतिरियन्द्रूणान्न श्रेयो रोचनं परम्। श्रेयो विवक्षया प्रोक्तै यथा भैषज्य रोचनम्। उत्पत्यैव हि कामेषु प्राणेषु स्वजनेषु च। आसक्तमनसो मर्त्यात्मनो नर्थहेतुषु। न तान विदुषस्वार्थं भ्राम्यतो वृजिनाध्वनि। कथयुज्यात् पुनस्तेषु तां स्तमो विशतो बुधः। एवं व्यवसितं केचिदविज्ञाय कुबुद्धयः। फलश्रुतिं कुसुमिता न वेदज्ञा वदन्ति। कामिनः कृपणा लुब्धाः पुष्पेषु फलबुद्धयः। अग्निमुग्धा धूमतान्ता स्वल्लोकं न विदन्ति ते। न ते मामङ्गजानन्ति हृदि स्थैर्यदयतः। उक्थशस्त्राय सुतृपो यथा निहार चक्षुषः ते मे मतमविज्ञाय परोक्षं विषयात्मकाः हिंसायाय यदि रागस्याद्यज्ञ एव न चोदना हिंसाविहारायालब्धैः पशुभिः स्वसुखेच्छया यजन्ति देवता यज्ञैः पितृभूतपतीन् खलाः स्वप्नोपममुल्लोकमसन्तं श्रवणप्रियम् आशिषोरुदि सङ्कल्प्य त्यजन्त्यर्थान् यथा वणिक् रजस्तत्त्वतमो निष्ठा रजस्तत्त्वतमो जुषः उपासत इन्द्रमुख्यान् देवादीन्न तथैव माम् इष्ट्वेह देवता यज्ञैर्गत्वारं स्यामहे दिवि तस्यान्तैह भूयास्म महाशाला महाकुलाः एवं पुष्पितया वाचा व्याक्षिप्तमनसा नृणां मानिनाय चाति स्तब्धानां मद्वा न रोचते वेदा ब्रह्मात्मविषया स्त्रिकाण्डविषयायिमे परोक्षवादारुषयः परोक्षं मम च प्रियम् शब्दब्रह्मसुदुर्बोधं प्राणेन्द्रियमनोमयम् अनन्तपारं गम्भीरं दुर्विगायं समुद्रवत् मयोपबृंहितं भूम्ना ब्रह्मणानन्तशक्तिना भूतेषु घोषरूपेण विशेषूर्णेव लक्ष्यते यथोर्णनाभिर्हृदयादूर्णामुद्वमते मुखात् आकाशात् घोषवान् प्राणो मनसा स्पर्शरूपिणा छन्दोमयो मृतमयसहस्रपदवीं प्रभुः ओङ्काराद्व्यजितस्पर्शस्वरोष्मान्तस्थभूषिताम् विचित्रभाषावितताय छन्दोभिश् चतुरुत्तरैः अनन्तपारां बृहतीं सृजत्याक्षिपते स्वयम् गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च त्रिष्टुब्जगत्यतिच्छन्दो यत्यष्ट्यति जगद्विराट् किंविधत्ते किमाचष्टे किमनूद्य विकल्पयेत् इत्यस्यारुदयल्लोके नान्यो मद्वेद कश्चन मां विधत्ते हते मा विकल्प्यापूयते त्वम्। एतावान् सर्ववेदार्थशब्दास्थाय माम्बिदाम् मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति। इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् एकादशस्कन्धे एकविंशोऽध्यायः। ॐ सर्वं श्री कृष्णार्पणमस्तु।